गीता साधक संजीवनी पांचवा अध्याय श्लोक 11 से 20 तक।
वसुदेव सुतं देवं कंसचारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरुं
कायेन मनसा बुद्ध्या केवलैरेन्द्रियैरपि योगिनः कर्म कुर्वन्ति सांगं त्यक्त्वात्मशुद्धये योक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् अयोक्तः कामकारेण फले सक्तो निबध्यते सर्वकर्माणि मनुषा संन्यस्यास्ते सुखं वशी नवद्वारे पुरे देहि नैव कुर्वन्न कारयन् न कर्त्रे त्वं न कर्माणि लोकस्य सृजति प्रभो न कर्म फलसंयोगं स्वभावस्तु प्रवर्तते नाद्यते कस्यचित् पापं न चैव सुकृतं विभुः अज्ञानेनावृतं ज्ञानं तेन मोह्यन्ति जन्तव ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः तेषामादित्यवज्ञानम् प्रकाशयति तत्परम् तद्बुद्धजस्तदात्मानस्तन्निष्ठास्तत्परायणा गच्छन्त्यपुनरावृत्ते ज्ञाननिर्भूतकर्मशा विद्या विनय सम्पन्ने ब्राह्मणे गविहस्तिनि सुनि चैव श्ववाके च पण्डिता समदर्शिना इहैव तैर्जितः सर्गो ईशं साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिता न प्रशिष्ये प्रियं प्राप्य नो द्विजे प्राप्य चाप्रियम् स्थिरबुद्धिरसम्मूढो ब्रह्मविर्ब्रह्मणि स्थितः न प्रशिष्ये प्रियं प्राप्य नो द्विजे प्राप्य चाप्रियम् स्थिरबुद्धिरसम्मूढो ब्रह्मविर्ब्रह्मणि स्थितः
वसुदेव सुतं देवं कंसचारुरमार्दनं देवकी परमानंदं